नमस्सर्वेभ्यः अद्य तिङन्तप्रक्रियायाः अष्टादशः पाठः नवम्बर् मासस्य त्रयोविंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् तिङन्तप्रक्रियायाः सङ्क्षेपः प्रायेण कथं भवति इति अधीयमानमस्ति. एते सर्वेऽपि अंशाः अधीताः, शीघ्रं पुनरावर्त्य अग्रेसरामः. प्रक्रिया आरभ्यते धातोः, भूवादयो धातवः अथवा सनाद्यन्ता धातवः. तत्र यदि मूलधातुः स्वीक्रियते, औपदेशिकः धातुः, तर्हि धातुपाठात् एते अंशाः ज्ञातव्याः भवन्ति. सानुबन्धः धातुः, तस्यार्थः, गणः, पदं तथा इत्योग्यता इति एते अंशाः प्रायेण धातुपाठात् लभ्यन्ते. ततः इत्संज्ञा लोपः, उपदेशे अजुनुनासिक इत् इत्यनेन अनुनासिकस्य अचः इत्संज्ञा भवति. हलन्त्यम् इति अन्त्यस्य हलः. आदिर्ञिटवः इत्यनेन आदौ विद्यमानानां ञी टु डु इति समुदायानाम् इत्संज्ञा भवति. तस्य लोपः इत्यनेन लोपः. इत्संज्ञायाः प्रयोजनानि बहूनि, तानि कानिचन ज्ञातानि, कानिचन ज्ञास्यन्ते. ततः निर्निमित्तानि प्राकृतिकानि कानिचन कार्याणि, यानि बहिर्भूतं किमपि निमित्तं न अपेक्षन्ते. धात्वादेशः सः धातोः आदौ विद्यमानस्य षकारस्य सकारादेशो भवति. नो नः धातोः आदौ विद्यमानस्य णकारस्य नकारादेशो भवति. इदितोनुं धातोः इत्यनेन इदितः धातोः, यस्मिन् धातौ ह्रस्वः इकारः इत्संज्ञकः, तस्य धातोः नुम् इति आगमः भवति अन्त्यादचः परः. उपधायां च इत्यनेन धातोः उपधाभूतौ यौ रेफवकारौ, तयोः उपधायाः इकः दीर्घः विधीयते. एतानि कार्याणि आदौ कर्तव्यानि, यतः प्रत्ययस्य निमित्तत्वं नास्ति. ततः लकारः धातोः तिङन्तप्रक्रियायां धातोः विधीयमानः प्रथमः प्रत्ययः लकारः. वर्तमाने लट् इत्यादिभिः सूत्रैः विशिष्टेषु अर्थेषु, विशिष्टेषु कालेषु, विशिष्टेषु भावेषु लकाराः विधीयन्ते. लकारेषु इत्संज्ञा लोपानन्तरं लकार एव शिष्यते, अत एव लकार इति नाम. ततः लावस्थायामेव अडागमः अथवा आडागमः क्रियते. त्रिषु लकारेषु अस्य प्रसक्तिः लुङ् लङ् लृङ्क्षु. एतेषु लकारेषु परेषु अङ्गस्य अट् इति आगमः क्रियते. अकारागमः टित्वात् आदौ भवति. आडजादीनाम् इत्यनेन यदि अङ्गम् अजादि भवति, तर्हि अडागमं बाधित्वा आट् इति आगमः भवति. यथा भू इति यदि धातुः, तर्हि अभू इति भवति. एध इति यदि धातुः, आ एध इति. आडागमे कृते आटश्च इत्यनेन वृद्धिरपि भवति, ऐध इति रूपम्. ततः लस्य तिबालयः, तिप्तस्थि सिप्तस्थमिद्वस्मस् तातां च था साधां त्वम् इड्वहि महिम्. सर्वेषु लकारेषु एते एव प्रत्ययाः आदेशत्वेन भवन्ति. अतः एषु विवक्षितं पदं पुरुषं वचनम् अनुसृत्य कश्चन प्रत्ययः क्रियते. ततः विकरण प्रत्ययः। प्रत्यये तिङ् प्रत्यये परे धातोः विधीयमानाः प्रत्ययाः विकरण प्रत्ययाः इति उच्यन्ते। द्वेधा भवन्ति विकरणाः, गणनिमित्ताः तथा लकारनिमित्ताः। अर्धधातुकलकारेषु लकारनिमित्ताः विकरणाः भवितुमर्हन्ति, यथा स्यतासि लृ लुटोः, लृङ् लृट् इत्येतयोः स्य विकरणः, लुटि तास् विकरणः, छ्लि लुङि लुङ्लकारे छ्लि इति विकरणः, सिप् बहुलं लेटि लेट् लकारे बहुलतया सिप् इति विकरणः। एते लकारनिमित्ताः विकरणाः। लिट्लकारे आशीर्लिङ्लकारे कोऽपि विकरणः न भवति। सार्वधातुकलकारेषु तु धातोः गणम् अनुसृत्य विकरणाः भवन्ति। औत्सर्गिकतया कर्तरि शप् इत्यनेन शप् प्रत्ययः भवति। तदपवादत्वेन दिवादिभ्यश्यन्, स्वादिभ्यश्नुः, तुदादिभ्यश्शः, वृथादिभ्यश्नम्, तणादिकृभ्य उः, क्रियादिभ्यः श्ना इति षट् विकरणप्रत्ययाः। सो एतेषु प्रकरणमनुसृत्य कश्चन विकरणप्रत्ययः भवति। ततः अङ्गकार्यम्, अङ्गस्य यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् इति अङ्गसंज्ञा विधीयते। यः प्रत्ययः यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन् प्रत्यये परे अङ्गसंज्ञं स्यात् इति। अङ्गस्य इत्यधिकारे प्रत्यये परे अङ्गस्य कानिचन कार्याणि विधीयन्ते। तेषु कार्येषु प्रमुखतया कार्यद्वयं गतवर्गे अधीतम्। गुणः, गुणविधायकं सूत्रद्वयम् अधीतम्, सार्वधातुक अर्थधातुकयोः। अङ्गकार्येषु विशिष्य तिङन्तेषु प्रायः एतदेव औत्सर्गिकं कार्यम्। सर्वेषु प्रत्ययेषु परेषु एतत् कार्यं भवितुमर्हति, सार्वधातुके अर्थधातुके च। इगन्तस्य अङ्गस्य, इकः इको गुणवृद्धि इत्यनेन इकः इति उपतिष्ठते। इगन्तस्य अङ्गस्य सार्वधातुके अर्धधातुके वा प्रत्यये परतः गुणः भवति। पुगन्तलघूपधस्य च, पुक् इति कश्चन आगमः निजन्तेषु, तदन्तस्य अथवा लघूपधस्य उपधायां लघुः इकारः उकारो वा इ उ ऋ इत्येते सन्ति चेत् तत्रापि गुणः भवति, उभयत्र सार्वधातुक अर्धधातुकयोः। यदि धातुः अथवा अङ्गम् इगन्तम् अथवा लघूपधं तर्हि आभ्यां सूत्राभ्यां गुणस्य प्रसक्तिः भवति। वृद्धिः, एतदपि औत्सर्गिकं कार्यं ञिति णिति च प्रत्यये। सो सर्वत्र सर्वेषु प्रत्ययेषु परेषु न भवति। यदि प्रत्यये ञकारः णकारो वा इत्संज्ञकः तर्हि वृद्धेः सम्भवः अस्ति। तत्र अजन्तस्य अङ्गस्य अचोणिति इत्यनेन वृद्धिः भवति। उपधायां यदि ह्रस्वः अकारः अस्ति तस्यापि वृद्धिः भवति अत उपधायाः इति सूत्रेण। सो दीस् आर् जस्ट् साम्पल्स् आफ् अङ्गकार्य। एज़् ऐ सेड्, अङ्गकार्य इस् वेर् द धातूस् डिफर् फ्रम् ईच् अदर्। सो एते द्वे औत्सर्गिके अङ्गकार्ये, these are just angakaryas for sample. The main thing that we will be studying in each gana, okay, after we finish this chapter we will go gana wise. So the main thing we will be studying in each chapter is the angakarya. What is the angakarya for which dhatu? That is where the majority of the dhatus differ from each other. So there is angakarya, there are two pratyayas, vikarana pratyayah asti, आख्यात प्रत्ययः अथवा किङ् प्रत्ययः अस्ति। विकरणप्रत्ययं निमित्तीकृत्य धातोः अङ्गकार्यं भवति। विकरणसहितः धातुः तिङ् प्रत्ययस्य अङ्गं, तस्य अङ्गस्य तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति। अतः द्विविधमपि अङ्गकार्यम् अध्येतव्यम्। तन्मध्ये प्रत्ययनिर्माणम् इति एकः अंशः अस्ति। यथा मया उक्तं, लकारस्य सर्वेषु लकारेषु लकारस्य तिप्तस्थि इत्यादयः अष्टादश आदेशाः भवन्ति। तर्हि किमर्थं रूपाणि भिद्यन्ते, ते एव प्रत्ययाः इति चेत्, तत्र प्रत्ययस्य अङ्गम् आश्रित्य प्रत्ययस्य परिवर्तनं क्रियते। सो द प्रत्यय इस् मोडिफैड् डिपेण्डिङ्ग् आन् द लकार एण्ड् आल्सो डिपेण्डिङ्ग् आन् द अङ्ग, द एण्डिङ्ग् आफ् द अङ्ग। सो दट् इस् वन् स्टेप् विच् वि विल् नाट् स्टडि नौ, इदानीं तस्य अध्ययनं मास्तु। Once we get into the Vadigana, after some time we will study Pratyaya Nirmana. Tadanantaram Pathamaha, adhuna tasya avashyakata nasti. Itopi ante staradvayam asti, sandhikaryam tatha tripadi karyani. Once we do the angakarya, sarvatra varanad angam baliyaha iti niyamaha asti. Sandhihi varanakaryam, it just depends on the letters. Whereas angakarya depends on specific angas and pratyayas. Adav angakaryam tataha sandhikaryam iti niyamaha. So sandhikaryam yadi asti tarhi karaniyam eva samhita ekapade nitya, tingante ekameva padam ataha samhita nitya, tatra sandhikaryam avashyam karaniyam. Sandhikarye krute ante tripadyam vishishtani karyani vidhiyante. यथा वयं जानीमः पूर्वत्र असिद्धम् इत्यनेन त्रिपादी पूर्वत्र असिद्धा, अतः सपादसप्ताध्याय्याः प्रक्रियां समाप्य अन्ते त्रिपाद्यां यानि कार्याणि भवन्ति तानि करणीयानि। अद्य सन्धिकार्यविषये किञ्चित् पठामः। ततः पूर्वं गतवर्गस्य अभ्यासः। Okay, so any volunteers for the yes. So kim kim karaniyam asit, dhatu hosti adau anubandhaha itsamya tasya lopaha tataha yadi prakritika karyanam avakasha hasti tarhi tani karyani tataha adagamaha athava adagamaha yataha langlakaraha iti uktam यथा योग्यम् अडागमः अथवा आडागमः। ततः तस्मात् शप् प्रत्यये योजिते किं कार्यं भवति, निच् प्रत्यये योजिते किं कार्यं भवति। शप् प्रत्ययः सार्वधातुकः, निच् प्रत्ययः आर्धधातुकः, अयं नित् अपि। Okay. Sujata,
beginning of the street.
Ah, Shruyate, Shruyate.
Yedha इति धातोः उपदेशे अजनुनासिकः इति सूत्रेण येध् इति भवति। अत्र प्राकृतिककार्यस्य आवश्यकता न भवति। अनन्तरम् आडागमः आडजाभीनाम् आतश्च इति सूत्रेण ऐध् इति भवति। अत्र शप्रत्यये परे वा निष्प्रत्यये परे कोऽपि
सत्यं किमपि कार्यं नास्ति,
कार्यं न भवति, ऐध इत्येव।
हा, ऐध इत्र
ऐध ऐधि।
आम्, अग्रे
हून् इत्यत्र हलन्त्यमिति सूत्रेण नकारस्य लोपः अडागम् अत्र न भवति। अडागमे कृते अपू इति भवति। अनन्तरं शप्रत्यये परे सार्वधातुक अर्धशास्त्रयोः इति सूत्रेण अपो अ इति भवति। निष्प्रत्यये परे अपौ इति भवति।
അചോയണിത്തി ഇതി വൃദ്ധി
അചോയണിത്തി ഇതി സൂത്രേണ
സത്യം.
അപ്പോ ഈ
അഗ്രിമം
അത്ര യത്ര ഉപദേശ അധികാരിക ഹൈതി സൂത്രേണ അത് ഇതി ഭവതി പ്രാകൃതിക കാര്യസ്യ പ്രസക്തിഹി നാസ്തി. ആടജാതീനാം ആചശ്ച ഇതി സൂത്രേണ ആ അത് ആത്തി ഇതി ഭവതി. അംഗകാര്യ ശപ്രത്യേ പരേ അപി ആത് ഇത്യേവ ശുദ്ധം വാ മമ സംശയഃ ജാതഃ. അത്ര
സദേവ അന്യത് കിമപി നാസ്തി
അത്ര ഏവമേവ നിഖി പരേ അപി ആത് ഇ ആത്തി.
അംഗകാര്യസ്യ അത്രാപി പ്രസക്തിഃ നാസ്തി. അസ്തു, ധന്യവാദാഃ ഭഗിനി. നിതീഷ് ചന്ദ്ര.
പ്രാകൃതിക കാര്യം കിമപി നാസ്തി. ആടജാദീനാം ഇതി സൂത്രേണ ആ പ്ലസ് ടു ആൻഡ് ആടശ്ച ഇതി സൂത്രേണ ഔ. ശപ്രത്യേ പരേ കിമപി ന ഭവതി ഔ നിശി അപി കിമപി ന ഭവതി.
ദ്രഷ്ടവ്യം ആടാഗമേ കൃതേ അത്ര പുനഃ അത ഇത്യത്രാപി ഉഭയത്ര ആടാഗമേ കൃതേ അംഗകാര്യസ്യ പ്രസക്തിഹി ന ഭവതി. കിന്തു കേവലഃ ധാതുഃ അസ്തി ചേത്, കേവലഃ ഉ ഇതി ധാതുഃ അസ്തി ചേത്, ശപി പരേ ഗുണഃ ഭവിതും അർഹതി ഒ അ ഇതി, ഏവം നിചി പരേ വൃദ്ധിഃ ഭവിതും അർഹതി ഔ അ ഇതി. അത ഇത്യത്രാപി കേവലഃ ധാതുഃ അത് ഇതി യദി അസ്തി തർഹി നിചി പരേ അത ഉപധായാഃ ഇത്യനേന വൃദ്ധിഃ ഭവിതും അർഹതി. ആടാഗമേ കൃതേ നിമിത്തം നാസ്തി ഇത്യതഃ അംഗകാര്യം ന ഭവതി. ആ അഗ്രേ വദതു. ക്ഷമ്യതാം.
ദുപദ് ആദിം നിഗുണവാഹ ഇതി സൂത്രേണ പശസ് തിഷ്ഠതി, ഹലന്ത്യം സൂത്രേണ ഹലന്ത്യം ആൻഡ് ഉപദേശ അജിനാസ്തി സൂത്രേണ പശ്യവ തിഷ്ഠതി. പ്രാകൃതിക കാര്യം കിമപി നാസ്തി. അടാഗമഃ ഇതി സൂത്രേണ
ഭവതി.
അപച് പ്ലസ് അംഗകാര്യം കിമപി നാസ്തി. നിചി തു അപ ആഭവത് അത ഉപധായാഃ ഇതി സൂത്രേണ
കിം ഭവതി.
അപാച്
അപാച് ഇ അകാരസ്യ വൃദ്ധൌ ആകാരഃ അപാച് ഇ. അഗ്രിമം
ജപ ഉപദേശസൂത്രേണ ജപ് പ്രാകൃതിക കാര്യം കിമപി നാസ്തി. ലുംഗ്ലിംഗ് സ്വർഗാർത്ഥ സൂത്രേണ അജപ്. ഷപി അജപ് പ്ലസ് അംഗകാര്യം കിമപി നാസ്തി. നിചി അജാപ് പ്ലസ് അത ഉപധായ
ഇത്യനേന വൃത്തി. അസ്തു, ധന്യവാദാഃ. മഹാദേവൻ. ധാത്വാദേശസ്സഹ
ശതി പരേ ഗുണ ഭവതി.
तत्रापि गुणः भवति सार्वधातुकात् पुगन्तलघूपधस्य च इत्यनेन निच् प्रत्ययः आर्धधातुकः अतः तत्रापि गुणः भवति असेध् इ. यदि वृद्धेः अवकाशः नास्ति तर्हि गुणस्तु भवत्येव असेधि शपि निचि उभयोः पुगन्तलघूपधस्य च इत्यनेन गुणः भवति.
शपितरे ऋजारस्य अरु इति पुनः अधर्षि अधर्षि अधर्ष इति रूपम् लुचितरे अधर्षि तस्य अधर्षि.
आम् सत्यम् उभयत्र पुनः अत्रापि घृष धातुः अडागमः शपीणिचि उभयत्र पुगन्तलघूपधस्य च इत्यनेन गुणः गुणे अर् इति भवति अघर्ष अघर्ष अघर्षि इति रूपम्. धन्यवादाः. रविचन्द्रन् cannot hear you clearly. Yeah, better.
Guru. So, there is no prakriti karyam on that. Guru itself. Then, at Agama, there is at Guru.
At Guru.
At Guru. Then, Shap, you say, Saradatika, Adivati, Guna.
अचोयणिति शपि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणे अध्वर् निचि अचोयणिति इत्यनेन वृद्धौ अध्वार् इ.
उपदेशे अचयनासिकं नाम नूनः नम अनम् अटागम देन् अनम् दर्शन गुणः उपदाय अटोपदायः अनाम.
सो शपि किमपि अङ्गकार्यं न भवति निचि अत उपधायाः इत्यनेन वृद्धौ अनाम इ अनामि.
अलङ्क्यं सो इति प्राकृतकार्यम् उपदेश धातोः शोषः
शस्सः धात्वादेशः
अटागमम् अस्मि अस्मे plus a asmaya with a vritti it become asmai plus e asmai.
So shapi gunah nichi vritti. Dhanyavada. Paul.
Okay. Yati, and we have upadeshe and rastika it. Upadeshe and rastika it becomes yet. And then lungwang lungshu at udata becomes ayat. and we get ayat a. And we get ayat e.
Ayat e.
Wait a minute, we get ayat. Yes, ayat e with ata upadaya.
Yeah. So that is vriddhi in nich. Next.
Yeah. So then we get shtibbi.
Shtabbi.
We get the shtabbi. Shtabbi. We get shtab. Upadeshya and rasika it. Then we get stamb. Stamb. Then we get which was a by datvade shahsa. Then we get stamb actually. The nakara now comes in with iti pronum dato. Then we get stamba by nastrapadanta sajali. And then stamba by yei parasavarna.
Anaswarasya yei parasavarna.
Yeah.
So it becomes stamb.
And then yes, stamb. And then we get adagama by lunglongvarsho. We get astamba, astam, and then we get astamba, we get astam plus a when adding shtab, and we get astam plus e when adding nich.
Yes. So there is no angakavya.
Right.
And
then we have chura.
Chara.
And by upadeshe, dhanunasik. Chara. Oh, chara. By upadeshe, adhanunasika it, we get chara. And then we get achara. By lunglong lungshu, udat. Ad udataha. And we get achura. Achur plus a with shak. And we get achar plus e with ata upadaya.
Right. So, shti kimapi na bhavati, nichi vriddhihi, ata upadaya, achar e, achari. Thank you.
Thank you.
Anjana?
Muda.
Niranubandha
rupam mud iti bhavati. Prakritika karyam nasti mudeva bhavati. Atagamasya amud iti bhavati. Shap pratyaye gunah bhavati. Lagu uganta lagu padasya iti sutrena amod a iti bhavati. Amud I eva bhavati nits pratyayata.
Tatrapi laghu ganta laghu padasya cha ityanena gunah bhavati.
So amud I.
Amud I.
Amud I. Tadanantaram hase. Niranubandha rupam has. Pratrika karyat paraha api has. Adagamaha ahas iti bhavati. Shapratye pare ahas a. And nichpratye pare ahas I iti bhavati ata upadhaya iti sutrena.
Ahas I.
Neenj.
Neenj.
Neenj. Niranubandha rupam ni. Dhatva. No naha iti sutrena. Ni iti bhavati. Adagamaha ani iti bhavati. Shaprate pare gunaha bhavati. Igantasya angasya sarvadhatuka ardhatuka yohu iti sutrena. Ane a iti bhavati. Nich pare. अचो निति इति सूत्रेण शुद्धि भवति अनै इति रूपं प्राप्नोति.
राइट, थैंक यू. नेक्स्ट, एनी अदर वॉलंटियर्स? Nobody else? Yes, Himanshu Mahoday.
Yes, Gai.
Hmm.
So Gai, no, there's no prakritik karyam.
Hmm.
Then it is Gai or Gai.
Hmm.
A gai a.
Mm.
A gai e.
Yeah. So takimopi nasti. Itam yagavarnaha nasti. Prakritika karyam nasti. Anga karyam api nasti.
Dhanyavaad.
Agre.
Urva.
Mm.
Then it is urva. Aurva.
Mm.
Aurva a.
Aurva
I.
Ataha.
Nidhi.
Nim.
Nind.
Anind.
Anind A. Anind I.
Ha. तत्रापि अंगकार्यं नास्ति किन्तु प्राकृतिक कार्यद्वयं नोनः तथा इदितोनुम धातोः इत्यभयं भवति. धन्यवादः. एनीबडी एल्स? प्रिया.
प्लुं धातु अनुबंधेन विना प्लुं प्राकृतिक कार्यम किमपि नास्ति. अडागमः लुङ् लङ् ऋङ्श्व अडुदातः इति सूत्रेण अप्लु. शक्करे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः अप्लो. निचिकरे अचोहिणति इति सूत्रेण वृद्धिः भवति अप्लौ.
अप्लौ इ.
अग्रे स्फुट उपदेशे अदर् नासिक स्फुट् कार्यं नास्ति. अडागम लुं लं ऋंश् अडुदातः इति सूत्रेण अट्फुट् अस्फुट्. तदनन्तरं शक्परे गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रेण
पुगन्तलघूपधस्य च इत्यनेन
सारी पुगन्तलघुपदस्य पुनः पुगन्तलघुपदस्य सूत्रेण अस्फोट्.
अस्फोट्. धन्यवादाः. मीनाक्षी. श्रूयते? हा, एनी सेन्स्? या, केनोट्. श्वित. स्विद. हा,
स्विद. अस्विद. अस्विद.
अस्विद. you get guna in both cases because it is laghupadha. Ubhayatra puganta laghupadhasya cha ityanena gunaha bhavati asved a asved I. Ha.
Kha. Only kha remains.
No, no. Khadu.
Khadu.
Yeah, khadu. Because khadru, the rikara goes by upadesha yajanasikaita. Khadu remains.
Khadu. Akhadu.
Hmm.
Akhadu. Akhadu. Akhada.
Hmm.
Akhada
I. Akhada I. Vayatra angakaryam nasti. Akhada akhadi. Dhanyavada. So if you notice, yadi igantam angam, tarhi bhedaha drishyate. So if the anga is iganta, shapi gunaha bhavati, nichi vriddhihi bhavati. Yadi angam adupadham, yadi ange hrasvaha akaraha upadhayam asti, tarhi shapi kimapi na bhavati, nichi vriddhihi bhavati. So if you have something like japa, shapi kimapi na bhavati, nichi vriddhihi ajap iti bhavati. Yadi laghupadham, yadi upadhayam laghuhu ikvarnaha asti, tarhi shapi nichi ubhayohu gunaha bhavati. Okay, so don't be under the impression that nich only governs vriddhi. Nich ardhadhatuka pratyaha, ataha yadi vriddhihi vriddhehe nimittam nasti, tarhi gunaha bhavitum arhati. Ataha yadi ajantam, tarhi shapi gunaha nichi vriddhihi. Yadi adupadham, tarhi shapi kimapina bhavati nichi vriddhihi. Yadi laghupadham, tarhi shapi nichi ubhayatra gunaha bhavati. Yatha sidh. Shapi api asedh, nichi api asedh. Okay. Tish Chandra, you have a question?
Hi. Yes. Iganta dhatu, like a 12th dhatu. Nishpare, why do we apply acho niti instead of sarva dhatu, karma dhatu? Both are applicable, right?
It is an apavada. We will see this one. So, vriddhi is para, I think. So, there is a, we have the conflict resolutions in the Ashtadhyayi. Vipratishedhe param karyam.
Vriddhi is in 7-2. Guna is in 7-3.
Is it? So, then, achoyaniti is, it is an apavada. It has, because if it is nit or nit pratyaya, achoyaniti, yeah, it should be an apavada to sarvadhatuka ardhadhatuka. Because sarvadhatuka ardhadhatuka yohu has a greater domain. And any pratyaya which is nit or nit, in this. But it is not the case in case of the pratyayas. I mean, it is achoyaniti is not applicable only to the dhatus. It is also applicable elsewhere. So it need not be an apavada. Achoyaniti. I look this up. What is this one? Okay. Drishtva vadami. Anya prashna ha? Any prashna hasantika? Any other questions from the previous? Astu. अग्रे गच्छामः. अद्यतनः पाठः बहु सुलभः. ये पूर्वमेव किञ्चिद्वा व्याकरणम् अधीतवन्तः स्युः तर्हि निश्चयेन जानीयुरेव. तथापि किञ्चिदिव पुनरावर्तनं तेषां. ये तु पाणिनीये नूतनाः तेषां किञ्चित् नूतनं स्यात्. सो सन्धिकार्याणि यथा मया उक्तं, द लास्ट् आफ्टर् वि डू आल् द अङ्गकार्यस् वि गेट् इन् टु द सन्धीस्. सो सन्धिः नाम कः? So maybe we can have a question. So what is a sandhi? It's a very common term in Vyakarana. Sandhi hi nama kaha. Hema?
Sarasandhika-shaha-samhita.
What's the difference between sandhi and samhita?
Samhita very close.
Yes.
So two varnas or aksharas are very close in contact. Sandhi they come together as one or sometimes the form.
Yeah. Right. So anybody else, can you, which is right? So what is the main difference between Samhita and Sandhi?
I get you said Samhita is a situation. Sandhi is a karyam that is demanded out of the situation.
Yeah. So Sandhi.
The situation is there close. Some karya has to be done. That is called Sandhi.
Right. So, as she said, actually, sandhi is samhita, I mean, the closeness, that is what a joint is called sandhi, but we refer to sandhi as a karya which takes place. Okay. So, what is sandhi? Varnanam vyatyayaha sandhihi. A change in a letter is called sandhi. The sandhi karya, when sandhi and sandhi karya are used interchangeably, whenever we refer to particular sandhis, so it refers to a change in letter. Okay. So kada bhavati sandhihi, samhitayam satyam sandhihi bhavati. Okay. Yatra varnanam paraha sannikarshaha, parasannikarsha samhita, varnanam atishayitaha sannidhihi samhita samyahasya, samhitayam satyam kvachit varnanam vyatyayaha bhavati. Saha vyatyayaha sandhihi iti uchyate. So, whenever we pronounce letters close together, when certain conditions are satisfied, one or more letters might undergo a change. And that change is what we call sandhi. So, samhita is the proximity of letters, whereas sandhi is a change which happens when there is samhita. So, samhita is there everywhere, wherever we pronounce the letters close together. But sandhi need not be everywhere. So, if there are specific nimittas, some of the letters might change, and that is what we call sandhi. Samhitayam satyam sandhihi iti uchyate. Samhita kutra bhavati, kutra na bhavati. Samhitaika pade nitya, nitya dhatu pasargayoho, nitya samase. Sarvada smartavyam samhita ekapade nitya ekasmin pade yadi padasya antaha padam nama suptingantam padam. So padasya madhye yadi dvau varnau staha tayoho samhita nitya bhavati. So there is a compulsory samhita. Say we have a bhu dhatu, there is a shap pratyaya, there is a ti pratyaya, bhu a ti ityasti. Sarvadhatuka arthadhatuka yoho ityanena gunaha bhavati bhudhatoho bho a ti. Tra sarvesham varnanam samhita nitya asti. Tatra okarasya akare pare avadeshasya prasaktihi asti sandhi sutrena. So there is a sutra which gives you av. So bhav a ti, it becomes bhavati. This is compulsory. The samhita is compulsory. because the samhita is compulsory, sandhi, if there is an applicability of any sandhi sutra, sandhi has to be compulsorily done within a word. You cannot keep them separate. Samhita ekapade nitya. Nitya dhatu upasargayoho. Dhatoho upasargasya cha samhita nitya. So if you have a dhatu, like say, edha dhatu asti, upa iti upasargaha asti. Upa edha iti bhinnam padam. Dhatuhu bhinnam padam, upasargaha bhinnam padam. Tathapi samhita nitya. So the sandhi has to be done. Upaidha iti vriddhihi bhavatyeva. You cannot keep them separate as upa and edha. Nitya samase. Gana isha itasti. Gana nam ishaha iti samase. Gana isha itasti. Tatra samhita nitya. So again there are two different words. Bhinnam padam tathapi samhita nitya. Ataha Ganesha iti sandhi sahitam rupameva prayoktavyam. Vichinnam rupam gana isha iti na prayoktavyam. So samhita ekapade nitya, nitya dhatu upasargayoho, nitya samase, vakyetu sa nama samhita, vivaksham apekshate, vaktuhu icha vivaksha. So it depends on how the speaker wants to convey. Yatha ekam padamasti, tatha eva iti vaktavyam, tathaiva iti vriddhihi api bhavitum arhati. Now here, in a sentence where there are different words in a sentence, samhita is optional. If there is samhita, there is sandhi. There can be sandhi. If there is no samhita, we need not do a sandhi. So I can either express it as tathaiva or tatha eva. Okay, that depends on my vivaksha. There I have a choice. Where? Vakye bhinneshu padeshu. So in a sentence between the different words, samhita is optional, and therefore, so if there is samhita, sandhi can occur. If there is no samhita, sandhi will not occur. So there, sandhi is also optional. But if it is a single word, if it is between a dhatu and an upasarga, if it is a samasa, sandhi karya is compulsory. If, of course, if the conditions are satisfied. Now, we are in Tinganta Prakriya, so it is all ekapada. We are still in the process of creating the pada. So, Tinganteshu, Samhita, Nitya. So, if Samhita is Nitya, if applicable, Sandhi has to be done compulsorily. Sandhikaryam. Kim bhavati sandhau. Sandhikaryam, athava sandhihi, varnanam vyatyayaha iti uktam. Tatra ayam vyatyayaha, tredha bhavitum arhati. Adeshaha, agamaha, tatha lopaha. Yatra vidyamanasya varnasya sthane, varnasya varnanam vasthane, nutanaha varnaha varna samudayova shruyate saha adeshaha. So where an existing letter or a group of letters is replaced or substituted by a new letter or a group of letters, we call it adeshaha. Agamaha vidyamananam varnanam madhye nutanasya varnasya varna samudayasya va agamaha. So agama is an augment or an addition of a new letter or more, one or more letters amidst existing letters. So the existing letters do not change. You just add something that is called agama, like we did in the adagama or the adagama. So bhatha iti dhatu asti tatra nutanaya a path iti bhavati saha agamaha. Kintu yadi vriddhihi kriyate a path nich iti asti. Tatra apath iti pakara uttarasya akarasya sthane atopadhayaha ityanena akaraha. So in place of akara, we now have akara. So that is an adesha. Lopaha vidyamanasya varnasya adarshanam lopaha. So lopa is where we do not see. What was there initially, we do not see. That is called lopa. Evam sandhikaryam tredha bhavitu marhati. These are the only three things which can happen in letter. A change in letter either means you add, you delete, or you substitute it with something else. Sandhihi apitredha Atsandhihi, Hal Sandhihi, Tatha Visarga Sandhihi, the three main types of Sandhis. We have the Panchasandhi Prakarana, which is correct, but the major types of Sandhis are only three. Yadi Achaha Vyatyayaha, if you are changing an Ach, a Swara, it is called Achsandhi. Yadi Halaha Vyatyayaha, Tarhi Hal Sandhihi. Yadi Visargasya Sthane Vyatyayaha, Tarhi Visarga Sandhihi. So these are the three major kinds of Sandhis. Tatra Visarga Sandhihi Visargasya Bhavati. Visargaha Padante Eva Bhavati. Okay, so Visarga Sandhi happens for the Visarga, and a Visarga is always found at the end of a Pada. Saravasanayor Visarjaniyaha is a sutra which gives Visarga. So Padantarephasya Visargaha. So always a Visarga arises at the end of a Pada. So we do not have that prasakti in Tingantas. If you are taking only Tingantas, we do not have Visarga Sandhi applying. Atsandhihi asti, Hal Sandhihi asti. Now, we will study only a few of the major Atsandhis. Okay, there is a section of Hal Sandhis which arises when we go later in the Tinganta Prakriya. For the initial few Ganas which we will take, it is mostly the Atsandhi rules which apply. So now we will study only the Atsandhi, the major Atsandhis, and later on we will take a section on the major Hal Sandhis which are applicable in Tingantas. Okay. So now there are two questions. One is, what is the difference between Samhita and Sanyoga? Halaha Anantaraha Sanyogaha. Two Hal letters which are close to each other is just called Sanyoga. Okay. Samhita is not necessarily, I mean, it can be between two Ach or two Hal or Ach and Hal. You just pronounce them two close together, it is called Samhita. Okay. So Sanyoga is specifically only for Hal, two consonants which are not separated by a vowel in between. Then there was another question, what about words like dukkha? There are also dus, it is an upasarga. So upasarga, it's a separate word. So it is still derived from the, as the, it's a different pada. But, okay. So then a question, can sanyoga occur between two words? Yeah, I mean, if you have say, there is a, Suhrut Karoti. Okay. You have Suhrut and Karoti. You have T and K. So there is Takara, Kakara. If there is no Ach between, it is a Sanyoga. It doesn't say where or when. You just have two consonants together, it is a Sanyoga. So, Atsandhihi, Atsandhau Pradhanataya Sapta Sandhayaha Santhi. Okay, so, the seven Sandhis, which are all very, very common Sandhis. So, Adau Yan Sandhihi. Iko Yanachi, it is Uttam. So, before that, sorry, there is no Karya in Sanyoga. See, in both Samhita and Sanyoga, there is no Karya. Samhita iti eka samnya, Sanyogaha iti eka samnya. Both of them are just names. Samhitam ashritya kanichana karyani pravartante yatha sandhi karyani. Sanyogam ashritya kanichana karyani pravartante yatha sanyogantasya lopaha. So there is no difference in that. Sanyoga is also a samnya and Samhita is also a samnya. Samhita is a samnya where any two letters are pronounced close together. That situation is called Samhita. It is not even the letters themselves. It is just the pronunciation of two letters very close to each other. Whereas Sanyoga is a Samnya for two consonants which are not separated by a ach. Okay, halaha anantaraha sanyoga. Both samhita and sanyoga are samya, and there are karyas which depend on samhita, there are karyas which depend on the sanyoga samya. So iko yanachi iti yan sandhi vidhayakam sutram. So if we look at iko yanachi, Samhitadhikaraha, starting here, Samhitayam. It is because of the Samhitadhikara that we say Sandhi happens in case of Samhita. So there are a few exceptions where you find Sandhi which are outside the Samhitadhikara. Okay? So it's just a general statement that we say that it is Samhitadhikara. So most of the Sandhi Sutras fall within the Samhitadhikara. There are three Samhitadhikaras. So Prathamaha Samhitadhikaraha Atra Shashthadhyaye Satra Iko Yanasi Iti Sutram Ikaha Yan Achi Iti Trini Padani Samhitayam Ityadhikaraha Ikaha Iti Shashthi Yan Iti Prathama Achi Iti Saptami Samhitayam Ityadhikaraha Shashthi Vibhaktihi So Paribhashanam Jnanam Atyapekshitam Vidhi Sutranam Jnane Shashthi Sthane Yoga Ikaha Sthane Yan Iti Adeshaha Karyam. So please remember what we studied in the introductory classes. So the Karya, whether it is Agama, Adesha, Lopa or Pratyaya, is always in Prathama Vibhakti. Ayam Tu Adeshaha Ikaha Sthane Yan Adeshaha Syat Achi Tasmin Iti Nirdishte Purvasya Ataha Achi Pare Ajavyavahita Purvasya Ikaha Yanadeshaha Iti Sutrataha Samhitayam. Samhitayam Satyam. When there is Samhita, Ik is replaced by Yan, when followed by Ach. So Ik, I, U, R, L Iti Chatvaraha Varnaha Tesham Achipare. Vastataha Sutre Achipare Itteva Asti. It does not qualify the Ach. Ikarasya Sarveshu Akshupareshu Yan Sandhihi Bhavet. Kintu Savarne Achipare Akasavarne Dirkaha Ityanena Dirkaha Vidhiyate Asya Apavadatvena. Okay. So Akasavarne Dirkaha is an Apavada. So Savarne Achipare Dirkaha Bhavati. Ataha Asavarne Achipare Iti Svikriyate. So this is not directly told. Sutre Asavarne Achiti Nochete Kintu Apavadasya Sattvate Asavarne Achipare Eva Yansandhihi Drishyate. Okay. Effectively, Yansandhi operates only if the following Ach is not a Savarna. So, Ikarasya Asavarne Achipare Yakaraha Ukarasya Vakaraha Rikarasya Rephaha Lakarasya Lakaraha Ayam Yansandhihi. So, it is called Yan because the Adesha is covered by the Pratyahara Yan. So, Kimudaharanam Vibhi Pati Ityasti Bhi Dhatoho Prathama Purushe Bahuvachane Vibhi Ati Ityasti Chet Ikarasya Akare Pare Yakara Deshaha Vibh Y Ati Vibhyati Vibheti Vibhitaha Vibhyati Iti Rupam Kuru Anti Ukaraha Ukarasya Akare Pare Vakara Deshaha. So you have kur v anti kurvanti jagri ati asti rkaraha rkarasya akare pare rephadeshaha jagrati. So these are the examples from tingantas. Okay, you will know the I'm assuming that most of you are familiar with yansandhi, so you know the normal examples of yansandhi. So this is just a revision of the sutras. If there is anybody who has not studied sandhis at all, please make it a point to learn at least the major sandhis. We will be seeing all the sutras today, but at least practice the sandhis and learn the basic sandhis, at least from the Laku Kaumudi. Okay. So this is Yan Sandhi, Iko Yanachi. The second sandhi is Ayadi Sandhihi, Athava Yantavanta Desha Sandhihi. Sutramasti Echo Ayavayavaha. So Iko Yanachi Agrimameva Sutram Echaha Ayavayavaha इकोयणचि इत्यतः अचि इति अनुवर्तते संहितायाम् इत्यधिकारः एचः इति षष्ठी अयवायावः इति प्रथमा बहुवचनम् अचि इति अनुवर्तते इकोयणचि इत्यतः संहितायाम् इत्यधिकारः एचः स्थाने एच् ए ओङ् ऐ औच् ए ओ ऐ औ इत्येतेषां वर्णानां स्थाने क्रमात् अय् अव् आय् आव् इत्येते आदेशाः भवन्ति अचिपरे संहितायां सो ए ओ ऐ औ एतेषां वर्णानाम् अचिपरे when they are followed by any ach ekarasya sthane ay ityadeshah okarasya sthane av ityadeshah aikarasya sthane ay aukarasya sthane av okay. So echo yavayavah is one of the most frequently encountered sutras in tinganta prakarana because of the guna we have the sarvadhatuka ardhadhatukayoh which is a very common karya. So wherever we do guna, if the following letter is an ach, so you have ay or av because it is a or o. Again, where we have vriddhi, yatra vriddhi bhavati, tatra aikaraha aukarova bhavati, tasmad achipare ayadeshaha avadeshaha bhavati. So wherever we have, we did the guna or vriddhi, so there is the possibility of the Ayadi Sandhi. So this is one of the most common Sandhis in Tinganta Prakriya. So Ne Ati. Ni iti dhatuhu. A Shap Pratyayaha Ti. So Shapi Pare Saradhatuka Ardhadhatuka Yoho iti Gunaha. So Ne Ati. Ekarasya Achi Pare Ayadeshaha Nayati. Evam Bho Ati. Bho Dhatuhu. Shapi Pare Saradhatuka Ardhadhatuka Yoho iti Gunaha. भो अति ओकारस्य अवादेशः भवति नी धातोः निच् प्रत्ययः निच् प्रत्यये परे अचोयणिति इत्यनेन वृद्धिः नै इ इत्यस्ति ऐकारस्य अचिपरे आयादेशः नायि इति निजन्तः धातुः नाययति इति रूपं भवति नयति नाययति एवं भौ भूधातोः निचिपरे वृद्धिः भौ इ औकारस्य अचिपरे आवादेशः भावि इति निजन्तः धातुः भावयति भवति भावयति नयति नाययति सो वेरी कॉमनली फाउंड इन ऑल मोस्ट केसेस ऑफ गुण एंड वृद्धि सो यन्तवन्तादेशसन्धिः इत्यपि उच्यते अयादिसन्धिः इत्यपि उच्यते एचो अयवायावः तृतीयः सन्धिः गुणसन्धिः आद्गुणः इति सूत्रम् सो यु हाव् इकोयणचि एचो अयवायावः आद्गुणः इस् हियर् एस् यु सी अ न्यू अधिकार इस् आल्सो हियर् द येल्लो वन् एकः पूर्वपरयोः ईदर् इन् इकोयणचि आर् एचो यवायावः पूर्ववर्णः पूर्ववर्णस्य एव आदेशः इकः स्थाने यण् एचः स्थाने अयादयः अग्रे विद्यमानस्य अचः कोऽपि आदेशः नास्ति किमपि परिवर्तनं नास्ति द अच् विच् फालोस् इस् नाट् चेञ्ज्ड् किन्तु इतः परम् एकः पूर्वपरयोः इत्यधिकारे यानि सूत्राणि सन्ति यानि कार्याणि विधीयन्ते पूर्वपरयोः एकः पूर्ववर्णस्य परवर्णस्य स्थाने एकादेशः सो वी कामन्ली रेफर् टु इट् एस् एकादेश सो इट् इस् अन् आदेश विच् रीप्लेसस् बोत् द पूर्ववर्ण एण्ड् द परवर्ण उभयोः स्थाने एकादेशः यथा आद्गुणः आत् इति पञ्चमी गुणः इति प्रथमा इकोयणचि इत्यतः अचि इति अनुवर्तते एकः पूर्वपरयोः इत्यधिकारः संहितायाम् इत्यधिकारः आत् नाम अवर्णात् यथा राम इत्यस्य रामात् तथा अ इत्यस्य आत् अवर्णात् अचिपरे पूर्वपरयोः एकः गुणः आदेशः स्यात् संहितायाम् इति सूत्रार्थः सो यत्र अकारात् ह्रस्वाद्वा दीर्घाद्वा अज्वर्णः परतः भवति उभयोः स्थाने both the purva and the para are replaced by an ekadesha which is the guna. Okay. So gunah vidhiyate ityatah ayam guna sandhihi. Atrapi sutre avarnad achipare ityeva asti. Kintu avarnad avarne pare akasavarne dirghah ityanena savarna dirghah apavadah. Avarnat echipare whenever it is followed by h Vriddhireti ityanena vriddhihi apavadah. So vriddhi is also an apavada to guna and svarna dirgha is also an apavada to adgunaha. So effectively adgunaha operates only when akara is followed by ik. I, u, r, l ityeteshu pareshu eva guna sandhihi. Adgunaha ityanena guna sandhihi bhavati. So this should be l, not al. The adesha is al, the letter here should be l. अवर्णात् इवर्णे परे पूर्वपरयोः एकारः एकादेशः अवर्णात् उकारे परे पूर्वपरयोः ओकारः एकादेशः अवर्णात् ऋकारे परे पूर्वपरयोः अर् अकारः गुणः उरण्रपरः इत्यनेन रेफः अर् इति एकादेशः अवर्णात् लुकारे परे पूर्वपरयोः अल् इति एकादेशः सो भव इत् इत्यस्ति भूधातोः विधिलिङ्गकारे भव इति अङ्गम् इत् इत्यस्ति सो अ प्लस् इ गेट्स् ए उभयोः स्थाने एकारः भवेत् इति रूपम् सो दिस् इस् मोस्ट्ली द सन्धि विच् इस् फौण्ड् इन् तिङन्तस् द अ प्लस् इ सो फार् द रेस्ट् यु हाव् द यूजुवल् एक्साम्पल्स् सूर्य उदयः सूर्योदयः ब्रह्म ऋषिः ब्रह्मर्षिः तव लकारः तवल्कारः सो अत्र अल् इति आदेशः अत्र अर् अत्र ओकारः सो इन् तिङन्तप्रक्रिया इफ् गुणसन्धि इस् नाट् फौण्ड् वेरि फ्रीक्वेण्ट्लि इफ् यु फैण्ड् इट् इट् इस् मोस्ट्ली अकार अण्ड् इकार वृद्धिसन्धिः चतुर्थः सन्धिः अच्सन्धिषु वृद्धिरेचि इति सूत्रम् सो आद्गुणः अग्रिमं सूत्रमस्ति वृद्धिरेचि अत्रापि संहितायाम् इत्यधिकारः एकः पूर्वपरयोः वृद्धिः आत् इति अनुवर्तते वृद्धिः इति प्रथमा एचि इति सप्तमी आत् इति अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यधिकारः अवर्णात् एचि परे पूर्वपरयोः एका वृद्धिः आदेशः स्यात् संहितायाम् गुणस्य अपवादः सो वृद्धि इस् आल्वेज़् एन् अपवाद टु गुण बिकास् गुण आल्वेज़् सेस् अचि परे वेन् फालोड् बै एनी अच् देर् इस् गुण इन् जनरल् सो इफ् इट् इस् एच् इन्स्टेड् आफ् गुण वि हेव् वृद्धि गुणस्य अपवादः सो अवर्णात् एकारे ऐकारे वा परे ऐकारः एकादेशः अवर्णात् ओकारे औकारे वा परे औकारः एकादेशः एक एकम् एकैकम् भवति एध ऐ इत्यस्ति अवर्णादैकारे परे ऐकारः एधै इति गङ्गा ओघः अवर्णादोकारे परे औकारादेशः गङ्गौघः तिक्त औषधम् तिक्तौषधम् So when it is followed by A or I, it is I. If it is O or Au, it is Au. Antakashchana prashnaha. Yadi gunaha ikvarne pare eva bhavati kimartham iki iti noktam. He is not saying anything there. Iko yanachi ityanena achi iti anuvartate. That is Panini's, it's lagvarta. He need not specify anything. Okay? Achi iti anuvartate, ataha achi pare gunaha, kintu yada utsarga apavada nirnayaha bhavati, tadatu ik pare eva bhavati. If he had to specify that it is ik, he had to tell that word. That one word is extra. Even without that, the meaning is very obvious in this case. So, laghavam, alpaksharam sutram. Akasavarne dirghah. So that is vriddhi. Again, Riddhi is not found very frequently in Tingantha. You find it in some cases, Guna and Riddhi. Some cases only. Panchamaha Sandhihi, Savarna Dirkha Sandhihi, Akasavarne Dirkha. So, Riddhirechi, Akasavarne Dirkha. So, the same Adhikaras. Akaha iti panchami, savarne iti saptami, dirghaha iti prathama, ekah purva parayo samhitayam iti adhikaraha. Akaha savarne pare. So whenever an ak letter, a, e, u, r, l is followed by a savarna, purva parayoho ekaha dirghaha adeshaha syat. So there is a dirgha as the adesha. So gunasya yanaha cha apavadaha. So, akasavarne dirgha is an apavada to guna. For akara, avarna dachi pare gunaha uktaha, tasya apavada trena, avarna davarne pare, akaraha dirghaha adeshaha bhavati. Ikvarna nam achi pare yanna vihitaha, tasya apavada trena, savarne achi pare, dirghaha adeshaha bhavati. Okay. Bhava ani etyasti lotlakare. So akarasya akare pare dirghaha bhavani. Avadi eet ikarasya ikare pare dirghaha adeshaha avadit. Guru upadeshaha guru upadeshaha guru upadeshaha hotr rikaraha hotr karaha. So these are the different examples of savarna dirgha sandhi. One of the most common and perhaps an easy sandhi to do. So, savarne akaha, savarne dirghaha. So, the next sandhi is pararupa sandhi. So, pararupa sandhau, tatra vastataha yatra sandhi prakarana madhiyate, tatra engi pararupam iti ekam sutra madhiyate, shakandhadishu pararupam vachyam iti vartikam va adhiyate, Tesham tayoho sutrayoho prasaktihi tinganta prakarane nasti. Engi pararupam iti tu avaranantad upasargat engadau dhatau pare. So upasargasya dhatohu madhye sandhihi. Shakandhadishu pararupam vachyam ityapi samase padana madhye sandhihi. So those two do not apply here. But a very important sutra which applies in tinganta prakriya. This might be a new sutra for many. If you have not studied Tingantha Prakriya earlier, this is a new sutra, but very commonly used. This is one where most of us get misled. Ato gune iti sutram, ataha gune iti padadvayam asti. So, ato gune, again, it's around here. So, ato gune atra asti. Usya padantat ityataha apadantat iti anuvartate. Engi pararupam ityataha pararupam iti anuvartate. Adhikaraha tu samanaha. Ekaha purvaparayohu samhitayam. Apadantat akarat ataha ityatra at iti taparakaranam. Taparastatkalasya ityanena harasvakaraha. Apadantat akarat gune pare. So when followed by a guna letter. Akare, ekare, okare, vapare, purva parayohu, ekam, pararupam, adesha hasyat, samhitayam. So, pararupa is an adesha. If a hrasva akara, which is not at the end of a pada, apadante hrasva akarat, gune pare, pararupam, adesha bhavati. So, savarna dirghasya, vriddhehecha, apavadaha. This is an apavada to savarna dirgha and to vriddhi. Se apadante yadi akaraha asti, tasmata akare pare, akaraha adeshaha. There should have been savarna dirgha, but instead of savarna dirgha, there is pararupa, so it becomes akara itself is an adesha for both. Evam avaranat ekare pare, ekaraha adeshaha. Instead of vriddhi, vriddhireti itinena vriddhau praptayam, ekaraha adeshaha bhavati. So akarad okare pare okaraha, but we don't find examples for these. It is for akara and ekara. If in between a pada, hrasva akara is followed by a or a, we have pararupa. Bhava anti ityasti, very common. So the pratyaya is anti and the anga is bhava. Bhava anti bhavanti, it does not become bhavanti because of atogune. Vanda e ityasti, atra pararupe vande iti rupam. So this again is very commonly found in Tingantas, and where we generally, because the sutra is not very familiar, we forget and tend to do Savarna Dirgha or Vritti. Ato gune ityanena pararupam, apadante iti vishishya uktatvat, prayena sandhi sutreshu na paathyate, kintu tinganta prakriyayam bahutra upayujyate. Okay? So we use it in many cases, ato gune ityanena pararupam bhavati, hraswa akarat gune parataha. The last sandhi in at sandhis is purvarupa sandhi. So purvarupa sandhi happy samanyam sutram bhavati engah padanta dati. Rame plus api rame pi. Padanta dengaha atipare purvarupam. Tatra tasya api tinganteshu prasakti na bhavati yataha padante eva uchyate. The Purva Rupa which we use here is Ami Purvaha. Okay. Ami Purvaha iti sutram. Akaha, akasavarne dirghaha ityataha akaha iti anavartate. Ikoena chi ityataha achi ityapi anavartate. Ekaha purva parayoho samhitayam iti adhikaraha. Akaha ami achi pare. When an ak letter is followed by the ach of am. Okay. Ami yaha akaraha tasya tasmin pare purvaparayohu ekaha purvaha adeshaha bhavati. So in case of pararupa sandhi, it is the paravarna which replaces both. In this case, it is the purvavarna which replaces both, which is why we call the purvarupa. Okay. So this is an apavada to savarna dirgha, pararupa and yanna. Yatha avarnat ami pare. So you either have am or am. Okay. So similarly, when ikara or ikara is followed by am, you have im or e. So for this letter and the akara of am, there is purvarupa. So ukarasya ukaraha thva ukaraha. So this is very common in the subantas also. Wherever we have the dvitiya vibhakti ekavasana, the am, you have this ami purvaha. Rama am ramam, hari am harim, guru am gurum, sarvatra purva rupam bhavati, tinganteshu api am iti pratyayaha ekatra bhavati. So in the lang lakara and other lakaras, the uttama purusha ekavachana, you get the am pratyaya. Okay? So wherever there is am, tatra amipurvaha ityasya prasaktihi, yatha abhava am becomes abhavam. Right. You notice that we can apply both atogune and amipurvaha here. Okay. Atogune ityanena pararupe krute api abhavam ityeva bhavati, amipurvaha ityanena ukte api purvarupe krute api abhavam ityeva bhavati, kintu paratvat apavadatvacha amipurvaha ityeva bhavati. Amipurvaha is very specific for am. And therefore, we have to do amipurvaha and not atogune. Even though the resultant is same, amipurvaha is an apavada to everything else. So, we have to apply amipurvaha. So, rama am ityatrapi amipurvaha ityeva ramam. Evam rama am ramam, harim, gaurim, gurum, ohum. Subanteshu sarvatra bhavati, tinganteshu api bhavati. Yatra am iti pratyayaha, satra amipurvaha. So these are the seven achsandhis, yan, ayadi, guna, vriddhi, savarna dirgha, pararupa and purvarupa. Kaha sankshepaha, we just see apadante hrasva akaraha. So if there is hrasva akara, tasmat ami pare ami purvaha ityanena purvarupam bhavati, अकारे एकारे ओकारे वापरे अतो गुणे इत्यनेन पररूपं भवति आकारे परे अकसवर्णे दीर्घः इत्यनेन सवर्णदीर्घः भवति सो बेटा ह्रस्व अकार वी हैव ऑल दीस अमिपूर्व अतो गुणे एंड अकसवर्णे दीर्घ व्हेन फॉलोड बाय दीस यदि दीर्घः आकारः तर्हि अमिपूर्वे अमिपूर्व अमिपरे पूर्व रूपं भवति अन्यथा सवर्णदीर्घः भवति So when both either ह्रस्व or दीर्घ are followed by इक् गुणः आद्गुणः इत्यनेन गुणः भवति एचि परे वृद्धिरेचि इत्यनेन वृद्धिः भवति Okay, this is about akara. Whenever akara is followed by any letter. So yatra ik varanaha asti. Ik varanat amipare purva rupam. So amipurva is an apavada to everything. Savarne achipare savarna dirghaha bhavati. Asavarne achipare ikoyanati ittenena yan bhavati. So h varananam tu sarvatra achipare एतोयवायावः इत्यनेन अयादिः वी कैन सी इफ एच व्हेन फॉलोड बाय एनी एच देयर इज अ सिंगल कार्य फॉर इक देयर कैन बी अमिपूर्वः सवर्णदीर्घ इकोयणचि सो इफ यू लुक एट दिस दिस इज द नॉर्मल प्रक्रिया इवन दो वी इन द अष्टाध्यायी क्रम यूजुअली द जनरल सूत्र कम्स फर्स्ट एंड द अपवाद कम्स लेटर व्हेन वी आर डिसाइडिंग द प्रायोरिटी Always the apavada comes first and finally you have the utsarga. Because utsarga has a larger domain. Out of that domain you always take away the apavada. Whatever remains is for the utsarga. So ikoyanachi, even if it says when it is followed by any ach, there is yan. So if it is am, it has to be amipurvaha. If it is savarna ach, it has to be savarna dirha. Whatever is remaining, you have ikoyanachi. Same in case of these sutras. So if it is rasvakara, so first it is amipurva, and then if there is no am, if it is akara or ekara, then we have to do atogune, or else we have to do akasavarne dirgha. Only if none of these apply, we go to the usual. H is vriddhi, and then ik is guna. Okay. So any questions in this? There was, I think, a question in between which I left. Iko gunavriddhin anuvartate kutra. What was your Sharva Mahodaya?
Ad guna itcetera.
Hmm. अनियमे अनियमे नियमकारिणी परिभाषा यत्र नियमः नास्ति विशिष्य कस्य इति नोच्यते तत्रैव परिभाषायाः प्रवृत्तिः अत्र तु अवर्णात् अचि इति स्थानीद्वयं पूर्वपरयोः भवति इति निर्दिष्टम् यत्र स्थानी विशिष्य निर्दिष्टः तत्र गुणस्य वा इको गुणवृद्धि इत्यस्याः प्रसक्तिः न भवति सो वेर् देर् इस् नो स्पेसिफिकेशन् आफ् द स्थानी देन् ओन्ली वि अप्लै द परिभाषा बिकास् द परिभाषा बै इट्सेल्फ् इस् लैक् दट् द डेफिनेशन् आफ् अ परिभाषा इस् अनियमे वेर् देर् इस् अ डौट् कस्य भवेत् इति सन्देहः यत्र अस्ति तत्रैव परिभाषायाः प्रसक्तिः अतः इको गुणवृद्धि इति तु अत्र प्रसक्तिः नास्ति एनी अदर क्वेश्चन्स् पूर्वमेकः प्रश्नः आसीत् वाट् इस् क एण्ड् अ वेन् वी वर् डिस्कसिङ्ग् अबौट् संयोग एण्ड् अदर् थिङ्ग्स् सो क अ क इति भवति अथवा क आ क तस्य किं नाम इति तत्तु शास्त्रे किमपि नाम नास्ति देर् इस् नो संज्ञा विच् इस् गिवन् स्पेसिफिकलि इन् द शास्त्र किन्तु सामान्यव्यवहारे गुणिताक्षरम् इति व्यवहारः दृश्यते क का कि कि इत्यादीनां गुणिताक्षराणि अर्थात् व्यञ्जनस्य स्वरेण योगे गुणिताक्षरम इति नाम व्यवहारे दृश्यते. शास्त्रे तु तस्य किमपि नाम नास्ति, बिकॉज आई मीन इट इज नॉट यूज्ड एनीवेयर, सो इट हैज नॉट बीन डिफाइंड. सो द एक्सरसाइज फॉर दिस क्लास इज ऑन संधिस. So this is all apadanta. So what are the sandhis which apply here? So pretty simple. So just learn so that these sutras are familiar, because these are what we will be applying over and over. So that's all. येनाक्षर समाम्नायम अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्.